नमस्कारः, सर्वेषां नमस्कारः. अस्मिन् वर्गे सर्वेषां स्वागतं. सम्यक् न शृणोति चेत् कृपया कोऽपि वदतु, न शृणोति इति वदतु कृपया. अस्तु,
गत
all of you can hear me well, right?
Yes, ma'am.
धन्यवादः. ओके, and I would appreciate all of you, please kindly mute from your end. And whenever there's a turn for each one of us, we'll unmute and we'll answer. Yeah, thank you. Savita Bhagini, Swagatam Bhagini. Gatavarge Bhavati na Agadavati aham kila Dhrani Mudranam Shrutavati va. प्रगति भगिनि.
आं भगिनि,
पुनस्मरणार्थं गतवर्गे वयं किं पठितवन्तः?
गतवर्गे वयं प्रत्यय प्रत्यय तक् एण्ड्
भवत्याः पार्श्वे करपत्रमस्ति वा?
यस्.
आम् अस्ति.
गतवर्गे वयं भवि त्वा प्रत्यय लिप् प्रत्यय पुनः पठामः.
पुनस्मरणार्थं पठितवन्तः.
पठितवन्तः.
पुनस्मरणार्थं नाम फार् रिविशन्.
अगेन्
पुनस्मरणार्थं वयं पठितवन्तः. सर्वम् अवगतवती वा भवती? समीचीनम्. अस्तु, अहम् एकं लघु करपत्रं PDF मात्रेण प्रेषितवती किल, ईमेल् मात्रेण, ईमेल् माध्यमेन. अस्ति वा भवत्याः पार्श्वे? अस्ति वा? अस्तु, समीचीनं. भवत्याः पार्श्वे अस्ति चेत् तस्य अर्थः भेदः किम् इति वक्तुं शक्नोति वा? अर्थः कः, भेदः कः?
ओके, फस्ट् वन् इस् गच्छति. गच्छति तस्य त्वा प्रत्यय भवति गत्वा. आगच्छति तस्य लिप् प्रत्यय भवति आगत्य.
समीचीनम्. एकनिमिषः, गच्छति पदस्य त्वा प्रत्ययरूपेण पठित्वा इति भवति, सोरि, गत्वा इति भवति. गत्वा ल्यप् प्रत्ययरूपेण आगच्छति इति पदस्य ल्यप् प्रत्ययः उपयोगं कृत्वा आगत्य इति भवति. किमर्थम् आगच्छति आगत्य इति भवति, न आगत्वा इति भवति?
आगच्छति इति पदे उपसर्गः अस्ति.
समीचीनं. कथं जानाति भवती उपसर्गः अस्ति इति? आरम्भं भवति पदस्य आरम्भे आ अस्ति, उपसर्गः अस्ति. अतः इयप् प्रत्ययम् उपयोगं कृत्वा आगत्य इति भवति. समीचीनं. एकं वाक्यं वक्तुं शक्नोति वा? गच्छति उपयुज्य, आगच्छति उपयुज्य, अथवा गत्वा आगत्य, द्वयमपि उपयोगं कृत्वा, पृथक् पृथक् गत्वा उपयोगं कृत्वा एकं वाक्यं वदतु, अनन्तरम् आगत्य उपयोगं कृत्वा एकं वाक्यं वदतु.
अहं गृहं अहं गृहं गत्वा भोजनं पचामि.
समीचीनं समीचीनम्.
एण्ड् देन्
कोऽपि अन्य कोऽपि वक्तुम् इच्छति चेत् अपि वदतु. रविमहोदय वा माधवी भगिनी वा कोऽपि वक्तुम् इच्छति चेत् अपि वदन्तु कृपया. चिन्तयतु, सर्वे चिन्तयन्तु. मम पुत्री गृहम् आगत्य एव खादति. मै डाटर् ईट्स् ओन्लि आफ्टर् कमिङ्ग् होम्. मम पुत्री गृहम् आगत्य एव खादति. सम्यक् अस्ति वा? दोषः अस्ति इति चिन्तयति वा? अथवा अन्यवाक्यं वक्तुम् इच्छति वा? प्रति आगत्य
बालिका आगत्वा गृहकार्यं करोति.
समीचीनम्. एकनिमिषम् अत्रैव तिष्ठतु. पद्मिनी भगिनी.
आं भगिनि.
भवती प्रगति भगिन्याः वाक्यं श्रुतवती वा? पुनः एकवारं वदति वा कृपया प्रगति भगिनी.
बालिका गृहे आगत्य गृहकार्यं करोतु.
इदानीं समीचीनं समीकृतवती. इदानीं समीकृतवती. पूर्वे भवत्याः वाक्यं उक्तवती. बालिका
आगत्य
सोरि. आम् आम्. इदानीम् अवगच्छति किल कथम् उपयोगं करणीयमिति? समीचीनं, बहु समीचीनं. धन्यवादः भगिनि. अवगच्छति किल प्रश्नः अस्ति वा?
यस् यस्.
प्रश्नः अस्ति वा? नास्ति प्रश्नः. नास्ति
प्रश्नः. नास्ति.
वाक्यं सरलमेव किल. प्रश्नः अस्ति, प्रश्नः नास्ति, प्रश्नं नास्ति, प्रश्नमस्ति. वाक्यं समीचीनमेव किल, सरलमेव किल. ऐ टेलिङ्ग् ऐ डोण्ट् हाव् क्वश्चन्, ऐ हाव् क्वश्चन् टु टेल् इवन् दो सेण्टेन्सेस्. मम पार्श्वे प्रश्नं नास्ति, प्रश्नम् अस्ति अस्ति इति सरलवाक्यमेव किल. इट्स् दे आर् सिम्पल् सेण्टेन्सेस् रैट्?
आम् आम्.
या इट्स् नाट् डिफिकल्ट् टु कन्स्ट्रक्ट् दो सेण्टेन्सेस् रैट्? सो वि केन् ट्रै टेल्लिङ्ग् अट्लीस्ट् दो सिम्पल् सेण्टेन्सेस् इन् संस्कृतम्.
ओके, धन्यवादः.
समीचीनं, धन्यवादः. धन्यवादः भगिनि. धन्यवादः. पद्मिनी भगिनी अग्रिम पठति वा? तिष्ठति, उत्तिष्ठति विषये.
तिष्ठति त्वा प्रत्ययः उपयोगं कृत्वा तिक्त्वा भवति. उत्तिष्ठति यत् प्रत्ययः उपयोगं कृत्वा उत्तिष्ठाय भवति.
समीचीनम्. अत्र उपसर्गः किम्? उपसर्गः कः? अत्र उपसर्गः कः? ऊ इति उपसर्गः अस्ति, अतः उत्थाय इति भवति. समीचीनं, समीचीनं. रवि, धन्यवादः भगिनि.
धन्यवादः.
एकं वाक्यं वक्तुं प्रयत्नं करोति वा? कृत्वा उत्थाय उपयुज्य
तिष्ठति नाम स्टाण्ड्.
आम् समीचीनम् असमीचीनम् आम् उत्तिष्ठति नाम
बालकः स्थित्वा पाठं पठति.
समीचीनम्
मोहनः षड्वादने उत्थाय पूजां करोति.
बहु समीचीनं बहु समीचीनं. भवती अवगच्छति किल?
आं भगिनि.
समीचीनमस्ति, धन्यवादः भगिनि. मधु भगिनि.
आं भगिनि. गच्छति प्रत्ययरूप गत्वा. बालकः शाला गत्वा पाठं पठति. अवगच्छति उपसर्ग अस्ति, प्रत्ययरूप अवगम्य भवति. अहं प्रश्नम् अवगम्य उत्तरं लिखामि.
बहु समीचीनं बहु समीचीनं.
धन्यवादः.
भवत्याः अवगमनं दृष्ट्वा बहु आनन्दम् अनुभूयामि अनुभवामि अनुभवामि. धन्यवादः. समीचीनं.
भवत्याः टीचिङ्ग् कारणं
भवत्याः प्रयत्नमपि अस्ति किल भगिनि? आसक्तिः अस्ति, पठनप्रयत्नम् अस्ति. अभिनन्दनानि. रवि महोदय.
आं भगिनि. नेक्स्ट् वन् रैट्. हलो हलो भगिनि.
वी केन् हियर् यू.
या ऐ थिङ्क् नीता भगिनि केन्
अगेन् सम् प्रोब्लम्.
Are you?
No. No, we are not able to hear you.
Oh.
Are you on Bagini? Now we can hear you.
Is it?
Yeah, yeah. Now we can hear you, Bagini.
Oh, in the meantime, are you not able to hear me, Bagini?
No,
no,
not
here.
When Ravi Bhavani was asking you, we could not hear your voice.
Oh.
In between, I think
I don't know what's happening, Bagini. Shamyatam. अस्तु महोदय. अस्तु महोदय, कृपया वदतु महोदय.
ओके, सो हरति इति प्रत्ययं हत्वा
कीदृशप्रत्यय उपयोगं कृत्वा?
त्वां त्वं प्रत्ययं
त्वा त्वा
त्वा प्रत्ययं. देन् विहरति प्रत्ययं विहत्य
विहृत्य
विहृत्य.
अत्र हृ अस्ति, हृ
हृ. ओके, विहृत्य
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 आम् विहृत्य विहरति पदस्य विहरति पदेन आम इयप्रत्ययः उपयोगं कृत्वा विकृत्य इति भवति. समीचीनं. हरति इति पदस्य अर्थः कः?
इस् अ स्टील् राइट.
आम् समीचीनं. हरति नाम डेस्ट्राय् अथवा स्टील् इति भङ्गं करोति. तादृशमपि भवति. विहरति नाम
विहरति
रोम् वाण्डर् इति अर्थे भवति. समीचीनम् अस्तु. अनन्तरं माधवी भगिनी.
आं भगिनि. प्रेषयति प्रेषयित्वा. प्रेषयति इति पदस्य प्रत्ययः प्रेषयित्वा ल्यप् प्रत्यय त्वा त्वा प्रत्यय सम्प्रेषयति
सम्प्रेष्य. अत्र उपसर्गः कुत्र अस्ति?
सम्प्रेषयति सम्प्रेष्य.
Actually, beginning here, no upasarga, right?
Preshayati?
Preshayati.
Preshayati nama? Sampreshayati. Sampreshayati nama. Atra sam iti upasarga ha bhavati.
Sam.
Sam iti upasarga ha asti. Ataha, sa yap pratyaha upayogam kritva, sampreshya iti bhavati.
Aam, bhagini. Sampreshya.
उभौ अपि अर्थः भवति सेण्ड् एव. अर्थः अर्थः सेण्ड् इति अर्थे एव भवति.
आं भगिनि.
अस्तु समीचीनं. सरति अनन्तरं राधिका भगिनी. धन्यवादः माधवी भगिनि.
धन्यवादः भगिनि.
आम् अर्थः समानमेव. प्रेषयति अपि सेण्ड्, सम्प्रेषयति अपि सेण्ड् एव भवति. अर्थे भवति न न.
धन्यवादः. आं भगिनि.
सरति.
आं सरति प्रत्ययः श्रुत्वा अनुसरति. अनु उपसर्ग अस्ति. अनुसृत्य
अतः ल्यप् प्रत्ययः उपयोगं कृत्वा
ल्यप् प्रत्ययः. सरति मीन्स् वाट् मेडम्?
सरति नाम go to words iti arthe bhavati. udaharanartham sarve agre sarati nama sarve people always go forward to learn something. Sarve agre sarati. Mama ghati nimishadvayam agre sarati. You know, my clock is always going 2 minutes fast. Mama ghati nimishadvayam agre sarati. सरति नाम गो टु वर्ड्स् इति अर्थे भवति. सन्दर्भानुसारेण अर्थः अपि भिन्नः भवति, परन्तु साधारणतया अर्थः भवति सरति नाम गो इति अर्थे. अनुसरति नाम फालो इति. आम् फालो. आम् अनुसरति. अहं
लक्ष्मणः राम अनुसरति.
आम् समीचीनम्. लक्ष्मणः रामम् अनुसरति. सीता रामम् अनुसरति.
आम्
प्रयाणसमये जनाः जनाः श्रुत्वा गच्छति
अनुसृत्य गच्छति अनुसृत्य गच्छति
सरति
अथवा अनुसरति इति एव सम्यक् भवति. कक्षायां पाठं छात्राः पाठान् अनुसृत्य एव गृहपाठं करोति. वार्ताः किं कथं भवति इति
अवगच्छामि.
समीचीनं. साधारणतया गच्छति वाक्यं तादृशमपि भवितुमर्हति. आम् आम् वयं अस्माकं प्रौढानां कार्यम् अनुसृत्य वयमपि कार्यं कुर्मः. ओल्डर् पीपल् रैट्
ओल्डर् पीपल् ओके.
साधारणतया गच्छति पदस्य त्वान्तरूपं गत्वा भवति. आगच्छति पदस्य यबन्तरूपम् आगत्य इति भवति. साधारणतया अर्थः उपसर्गः अस्ति चेत् गच्छति गच्छति पदस्य योगेन आ अस्ति चेत् उपसर्गः योगं योगेन पदमस्ति चेत् आगच्छति इति भवति चेत् अर्थः समानं भवति इति न. कश्चन समये अर्थः समानं भवति, कश्चन समये अर्थः भिन्नं भवति. सन्दर्भानुसारेण अर्थः भवति.
अत्र हरति विहरति
सर्वदा समानं भवति, सर्वदा भिन्नं भवति इति न. उदाहरणार्थं गच्छति इति अर्थः अस्ति गो इति किल. अवगच्छति इति पदस्य अर्थः द्वयम् अस्ति. एकम् अस्ति कम् इति किल. अन्य अर्थः भवति अवगच्छति इति अव इति उपसर्गः अस्ति चेत् अवगम्य इति भवति. अवगच्छति नाम अण्डर्स्टाण्ड् किल. उदाहरणार्थं प्रेषयति सम्प्रेषयति इति पदद्वयम् अस्ति. अत्र अर्थः समानमेव, सेण्ड् इति एव अर्थः अर्थं भवति. सन्दर्भानुसारेण कश्चन समये अर्थः भिन्नं भवति, कश्चन समये अर्थः समानं भवति. उपसर्गः कीदृश उपसर्गः भवति इति अनुसृत्य एव अर्थः भिन्नमपि भवति.
हरति विहरति भिन्नम् अस्ति अर्थम्.
आमा, हरति नाम भिन्नम्, अर्थः भिन्नमेव. सविता भगिनी, आं प्रश्नः अस्ति वा?
प्रश्नः नास्ति भगिनि.
अन्य कोऽपि प्रश्नः? अस्तु, केन् यु प्लीस् आल् म्यूट् फ्रम् युर् एण्ड् प्लीस्. अस्तु, सविता भगिनी वदति वा? क्षालयति.
आं भगिनि. ओके ओके, वन् सेक् भगिनि. ओके ओके शालयति इति पदस्य द्वान्तरूपं शालयित्वा ओके प्रक्षालयति इति पदस्य लेप्यन्तरूपं प्राक्षाल्य
प्रक्षाल्य
प्रक्षाल्य ओके प्रक्षाल्य शालयति नाम क्लीन् वाट् इस्
प्रक्षालयति
वाश् वाश् ओके
अत्र
प्रक्षालयति इस् आल्सो सेम्
आम् समान अर्थः समानमेव
ओके 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 अहं पात्रं क्षालयित्वा पचनं करोमि
बहु समीचीनं बहु समीचीनं
प्रक्षाल्य ओके अहं दन्तमञ्जनं प्रक्षाल्य प्रार्थनं करोमि
समीचीनं दन्तमार्जनम् इति भवति अहं चिन्तयामि
ओके इस् इट् रैट्
आम् आम् समीचीनमस्ति आम्
ओके मुखप्रक्षाल्य प्रार्थनं करोमि
बहु समीचीनम्
ओके सो शल ऐ गो फर् द हसति
धन्यवादः भगिनि धन्यवादः
धन्यवादः भगिनि
अन्य कोऽपि अहं न राधिका भगिनी कृतवती माधवी भगिनी भवती अपि कृतवती वा
शालयति प्रक्षालयति भिन्न अर्थः समानार्थमेव
समानार्थः एव भगिनि साधारणतया
आं भगिनि आं कृतवती
कृतवती किल सर्वे कृतवन्तः इति अहं चिन्तयामि अस्तु पुनः एकवारं कुर्मः प्रगति भगिनि प्रगति भगिनी अस्ति वा
आं भगिनि हसति इति पदस्य त्वान्तप्रत्ययः हसित्वा भवति
त्वान्तरूपं
उपहसित्वा
हसति पदस्य त्वान्तरूपं भवति हसित्वा
हसित्वा उपहसति पदस्य लेबन्ध
रूपम्
उपहस्य
रूपं भवति
रूपं भवति उपहस्य
उपहस्य अर्थः भिन्नः अस्ति वा भिन्नं भवति वा अथवा समानं भवति वा जानाति वा हसति नाम किं
हसति मीन्स् स्मैल् ओर् लाफ्
समीचीनं समीचीनम् उपहसति नाम
उपहसति
नाम टु लाफ्
लाफ् एट् समवन्
ओर् समीचीनम् अत्र उप इति उपसर्गः अस्ति तद्योजनेन अर्थः अपि भिन्नं भवति अर्थः अस्ति लाफ् एट् ओर् स्काफ् अथवा माक् इति अर्थे भवति समीचीनं धन्यवादः भगिनि
धन्यवादः
वाक्यं रचयितुम् इच्छति चेत् करोतु कृपया
बालकः हसित्वा क्रीडन्ति
समीचीनं
बालकाः सोरि बालिक बालकाः हसित्वा क्रीडन्ति
बहु समीचीनम्
एण्ड् उपहास्य वयं जनाः उपहास्य न करोमि कुर्मः सोरि वयं फोर् वयं कुर्मः
सो वयं द पीपल् आर् आब्जेक्ट् रैट् सो वयं जनान् जनः जनान् द्वितीयविभक्ति
बहुवचनं दिस् सेण्टेन्स् इस् राङ्ग् उपहास्यम् आफ्टर् दिस् उपहास्यं समथिङ्ग् एल्स् शुड् आल्सो कम् न or is it correct that janan upahasyam na kurmah is it correct or wrong
ekvaram aham punah vadatu kripaya
no because
it's akarmaka dhatu this is akarmaka dhatu hasati
yes ha so this is correct then that vayam janan upahasyam na kurmah
अहं दृष्ट्वा वदामि वा भगिनि
ओके
भवती किं वक्तुं इच्छति इति अहम् अवगच्छामि
वी शुड नॉट लाफ एट अदर्स
राइट 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 भवती किं वक्तुम् इच्छति इति अहम् अवगच्छामि परन्तु तादृशवाक्यं रचयितुं समीचीनम् अस्ति वा इति किञ्चित् अहं सम्यक् न जानामि एतद्विषये दृष्ट्वा वदामि वा अग्रिमवासरे
ओके
परन्तु एतत् अकर्मकधातु भवति अतः अगम अत्रापि मामपि प्रश्नः अस्ति धन्यवादः भगिनि
धन्यवादः
वयं जनान्
उपहास्य न कुर्मः
can we say people laugh at the clown's jokes
आम् हसित्वा इति भवति किल उपहस्य इति न भवति
or sentence if you make it like saha upahasya karish he went after laughing on someone
अत्र मम प्रश्नः अस्ति नियमः साधारणतया अकर्मकधातु अस्ति चेत् तादृशवाक्यं न वक्तुं शक्नुमः परन्तु नियमः अपि अन्यनियमः अस्ति वा इति अहं न जानामि तत्कारणात् एव अहं वयं चिन्तयित्वा अग्रिमवासरे अहं वदामि
ओके ओके धन्यवादः
धन्यवादः भगिनि उपहास्य वयं जनान् पुनः वदति वा भगिनि भवत्याः वाक्यं वयं जनान् उपहस्य हरि ओम्
वयं जनान् उपहास्य न कुर्मः
अस्तु अस्तु चिन्तयित्वा अहं वदामि धन्यवादः अनन्तरं पद्मिनी भगिनि अनन्तरं भवती
क्वान्तप्रत्ययः उपयोगं कृत्वा भूत्वा भवति.
आम्
अनुभवति ल्यप् प्रत्ययः उपयोगं कृत्वा अनुभूय भवति.
समीचीनम्. एतत् पर्यन्तं सर्वे अवगतवन्तः वा कुत्र त्वान्तरूप कुत्र त्वान्तप्रत्यय त्वा प्रत्ययः उपयोगं करणीयं, कुत्र ल्यप् ल्यप् प्रत्ययः उपयोगं करणीयम् इति जानन्ति इति अहं चिन्तयामि. समीचीनं, बहु समीचीनं, समीचीनम्. अस्तु, नूतनपाठं पठामः वा? समीचीनम्. अस्तु, अद्य नूतनप्रमुखपाठः भवति तुमुन् इति विषये. तुमुन् इति एकः प्रत्ययः, अन्य नूतनप्रत्ययः नाम अस्ति. इदानीं वयं गतवर्गे वयं पठितवन्तः त्वा इति प्रत्ययः, ल्यप् इति प्रत्ययः विषये पठितवन्तः. तत्र अर्थः समानमेव. त्वा इति प्रत्ययः प्रत्ययः अपि ल्यप् इति प्रत्ययः अपि अर्थः समानमेव. परन्तु तुमुन् इति प्रत्ययः अस्ति, अत्र नूतनप्रत्ययः भवति. सर्वे भवन्तः पार्श्वे करपत्रम् अस्ति इति अहं चिन्तयामि. एकं द्वे त्रीणि चत्वारि पञ्च षड् षष्टमस्तम्भं पश्यति वा? षष्टमस्तम्भे तुमुन् इति प्रत्ययः अस्ति. अहं कानिचन वाक्यानि वदामि, अवगच्छन्ति वा इति श्रुत्वा वदन्तु. अस्तु, अस्तु. वत्सः क्षीरं पातुम् इच्छति. वत्सः क्षीरं पातुम् इच्छति. बालकः पाठं पठितुम् इच्छति. बालिका क्रीडितुम् इच्छति. चोरः धावितुम् इच्छति. पठितुं क्रीडितुं पातुं धावितुम् इति पदः इत्यादीनि पदानि तुमुन् इति प्रत्ययः उपयोगं भवति. सर्वे श्रूयते वा पद्मिनी भगिनी? आम् भगिनी, पद्मिनी भगिनी, अत्र एकं वाक्यमस्ति, वत्सः क्षीरं पातुम् इच्छति. अथवा बालकः पाठं पठितुम् इच्छति इति वाक्यं स्वीकरोतु. बालकः पाठं पठितुम् इच्छति. पठति इति पदस्य तुमुन् प्रत्ययः उपयोगं कृत्वा पठितुम् इति भवति. कुत्र तुमुन् प्रत्ययः उपयोगं करणीयम् इति पश्यामः चेत्
when he wants to do something.
He wants to read. He wants to play. He wants to eat. Iti arthe bhavati.
Used to. Karanam.
Kimartham. Kimartham paathashalam gacchati?
Patitum.
Kimartham kridanganam gacchati?
Kriditum.
किमर्थं गृहपाठं करोति? पठितुं,
ज्ञातुं.
जानाति पदस्य तुमुन् प्रत्ययरूपं भवति ज्ञातुं. तादृशार्थे भवति. अहं वाक्यं वदामि, बालकः पाठं पठितुम् इच्छामि, इच्छति, क्षम्यतां, बालकः पाठं पठितुम् इच्छति. बालकः किम् इच्छति?
पाठं पठितुम् इच्छति.
समीचीनं. वत्सः क्षीरं पातुम् इच्छति. अत्र पिबति इति पदस्य तुमुनन्तरूपं पातुम् इति भवति. आम्, पिबति पदस्य तुमुनन्तरूपं भवति पातुम्. अत्र तुमुन् अन्तरूपम् इति अहं वदामि. किमर्थं तुमुन् इति प्रत्ययः नाम अस्ति. एतत् एतत् प्रत्ययः पदस्य अन्ते किल भवति, अन्ते एव भवति किल, अतः तुमुन् अन्तरूपम् इति अहं वदामि. पठति पदस्य तुमुनन्तरूपं किम्?
पठितुम्.
क्रीडति पदस्य तुमुनन्तरूपं?
क्रीडितुम्.
भवति पदस्य तुमुनन्तरूपं?
भवितुम्.
अस्ति पदस्य तुमुनन्तरूपं?
भवितुम्.
बहु समीचीनं, धन्यवादः.
धन्यवादः
रविमहोदय.
आं भगिनि.
आम्, लिखति पदस्य तुमुनन्तरूपं?
लिखित्वा.
षष्टमस्तम्भं पश्यति वा कृपया, षष्टमस्तम्भं. भवतः पार्श्वे करपत्रम् अस्ति वा महोदय?
Which one भगिनी? You have sent email, that one भगिनी?
आम् 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 आम्, अहं प्रेषितवती गतवर्गस्य पूर्वमेव अहं प्रेषितवती. राधिका भगिनी प्रार्थनां कृतवती किल, स्वीकरोतु. सविता भगिनी, ऐ विल् आस्क् सविता भगिनी अण्ड् कम् बेक् टु यू. सविता भगिनी.
आं भगिनि.
आम्, लिखति पदस्य तुमुनन्तरूपं?
लेखितुम्.
खादति पदस्य तुमुनन्तरूपं?
खादितुम्.
मिलति पदस्य तुमुनन्तरूपं?
मेलितुम्.
हसति पदस्य तुमुनन्तरूपं?
हसितुम्.
समीचीनं, समीचीनं, अस्तु. मधु भगिनी, धन्यवादः भगिनी. निन्दति पदस्य तुमुनन्तरूपं?
निन्दितुम्.
पतति पदस्य तुमुनन्तरूपं?
पठितुम्.
नयति पदस्य तुमुनन्तरूपं?
नेतुं भगिनि.
नेतुं, नेतुं,
नेतुम्.
आनयति पदस्य तुमुनन्तरूपम्?
आनीतुम्.
आनेतुम्.
आनेतुम्.
नयति पदस्य तुमुनन्तरूपं नेतुम्, आनयति पदस्य तुमुनन्तरूपम् आनेतुम्.
आनेतुम्.
भगिनि, अत्र नयति इति पदे उपसर्गः अस्ति वा?
न भगिनि.
आनयति पद, आनयति पदे इति पदे उपसर्गः अस्ति वा?
अस्ति भगिनि.
अस्ति. तादृशकारणात् तुमुनन्तरूपे भेदः भवति वा?
भेदः भवति भगिनि.
न भवति तुमुनन्तरूपे.
आं भगिनि,
भेदः न भवति.
भेदः न भवति.
भवति नेतुम्, आनेतुम्. तादृशमेव अस्ति भाषा, तादृशमेव अस्ति.
स्पेशल् वर्ड् लैक् दट्?
न न न, भेदः नास्ति अत्र. केवलं ल्यप् त्वान्तरूपं ल्यप् प्रत्ययः, अत्रैव भेदः अस्ति. उपसर्गः अस्ति अस्ति चेत् भेदः अस्ति इति नियमः भवति.
आं भगिनि.
तुमुनन्तरूपे तादृशभेदः न, नियमः न, नियमः नास्ति, तादृशनियमः नास्ति.
आं भगिनि, अण्डर्स्टुड्, अण्डर्स्टुड्. अवगच्छामि.
स्मरति स्मरति इति पदस्य तुमुनन्तरूपं किं
स्मरितुं
न भवती नयति पठितवती आनयति पठित उक्तवती वदति वदति पदस्य अनन्तरं स्मरति अस्ति पश्यति वा
इन् द हेण्ड् औट् भगिनि
आम् आम् करपत्रे एव अस्ति नयति नयति इति पदं दृष्ट पश्यति वा भवती Do you have the handout in front of you, Bhagini?
I'm having, Bhagini. There are so many verbs. And just,
right. So, yeah. I'm asking all the verbs in line to all of you.
Okay, okay. Okay. I'll take it. Huh? Nayati. I got it. Netum.
Netum.
Vaktum.
So, Vadati Padasya Tumuranta Rupam Vaktum Bhavati.
आं भगिनि
विस्मरति पदस्य तुमुनन्तरूपं सोरि स्मरति स्मरति पदस्य
तुमुनन्तरूपं
स्मर्तुं अहं पृच्छामि विस्मरति इति पदमस्ति विस्मरति इति पदस्य तुमुनन्तरूपं
विस्मर्तुं
विस्मर्तुमेव भवति उपसर्गः अत्र अस्ति अतः अन्य नूतन रूपं नास्ति अत्र उपसर्गः अस्ति चेत् अपि तुमनन्तरूपं समानमेव गच्छति
गन्तुं
आगच्छति
आगन्तुम्
आम् आम् सुलभः अस्ति वा
सुलभः अस्ति भगिनि
अवगच्छति किल
अवगच्छामि भगिनि
धन्यवादः रविमहोदय भवान् सिद्धः अस्ति इच्छति इच्छति पदस्य तुमनन्तरूपम्
इष्टम्
एष्टुं
सारि एष्टुम्
एष्टुम् उत्तिष्ठति इति पदस्य तुमनन्तरूपम्
उत्थातुम्
उत्थातु समीचीनं बहु समीचीनम् उत्थातुं पिबति पदस्य तुमनन्तरूपं
पातुम्
आम् इदानीमेव अहं पद्मिनी भगिनीं एकं वाक्यं पद्मिनी भगिनीं प्रति अहम् उक्तवती वत्सः क्षीरं पातुम् इच्छति अर्थः कः वत्सः वत्सः क्षीरं पातुम् इच्छति
मीन्स् द चैल्ड् आर् बेबि राइट्
आम् समीचीनम्
लैक्
वत्स एतत् सन्दर्भे वत्सः अस्मिन् सन्दर्भे वत्सः नाम काफ् सि ए एल् एफ्
ओ ओके
अवगच्छति वा
आं भगिनि
वत्सः नाम काफ् बेबीस् कौ अस्ति किल काफ् वत्सः क्षीरं पातुम् इच्छति
बेबी सारि
वत्सः क्षीरं क्षीरं नाम मिल्क्
मिल्क्
वत्सः नाम काफ् वत्सः क्षीरं पातुम् इच्छति
लैक्स् टु ड्रिङ्क् मिल्क्
समीचीनं बहु समीचीनं कः क्षीरं पातुम् इच्छति वत्सः क्षीरं पातुम् इच्छति समीचीनं गोपालकः दुग्धं दातुम् इच्छति
गोपालकः दुग्धः दुग्धं
दातुं
इच्छति
गच्छति क्षम्यतां गच्छति
गच्छति ओके सो Gopalaka is a milkman or something
like that. Samichinam, milkman eva.
Milkman, Tugdam is milk.
Samichinam.
Datum is he's giving to someone, right?
Samichinam, yes.
So milkman goes to give the milk.
Samichinam, bahu samichinam. Bhavan, भवतः पार्श्वे करपत्रम् अस्ति चेत् द्वितीयपुटं पश्यतु. द्वितीयपुटे चतुर्थक्रियापदम् अस्ति ददाति. अग्रिमपुटमेव ददाति अस्ति किल. ददाति पदस्य तुमनन्तरूपं किं?
धातुं.
धातुं नाम टु गिव्. गोपालकः दुग्धं दातुं गच्छति. अर्थः कः पुनः एकवारं वदति वा कृपया?
मिल्क् मेन् गोस् टु गिव् मिल्क्.
समीचीनं, बहु समीचीनं. छात्रः पठितुं विद्यालयं गच्छति.
Student goes to school for studying.
Samichinam. Patitum nama to read, or to study. Avagacchati kila artha katam bhavati tumanantarupam kutra upayogam karaniyam iti avagacchati va?
Is basically to use it as to study, to go, something like that, right?
Exactly, right. Kimartam gacchati? Patitum gacchati.
Yeah.
Karanam.
ओके
एव अर्थे भवति. समीचीनं महोदय, धन्यवादः महोदय. माधवी भगिनी.
आं भगिनि.
अहं नर्तितुं शक्नोमि.
अहं नर्तितुं शक्नोमि. आं भगिनि.
अहं नर्तितुं शक्नोमि. अत्र तुमनन्तरूपं किं कुत्र अस्ति? किं नर्ति? समीचीनं समीचीनं. अर्थः कः वाक्यस्य? अर्थः कः?
ऐ केन् डान्स्.
समीचीनम्. ऐ केन् रीड् इति कथं वदति भवती?
अहं पठितुं शक्नोमि.
ऐ लैक् टु लर्न् संस्कृतं कथं वदति?
अहं संस्कृतं पठितुम् इच्छामि.
अस्तु, बहु समीचीनम्. अत्र ददाति इति क्रियापदं पश्यति किल करपत्रे?
आं भगिनि.
ददाति इति पदस्य आरभ्य चतुर्थपदं पश्यतु, जानाति इति.
जानाति. आं भगिनि.
अस्ति वा? जानाति इति पदस्य तुमनन्तरूपं किं? ज्ञातुं. ज्ञातुम् उपयुज्य वाक्यं रचयितुं शक्नोति वा? ऐ लैक् टु लर्न् संस्कृतम् इति अर्थे संस्कृतेन ज्ञातुम् इति पदम् उपयुज्य वक्तुं शक्नोति वा?
आं भगिनि. अहं संस्कृतं ज्ञातुम् इच्छामि.
बहु समीचीनम् अस्ति किल वाक्यम्.
आं भगिनि.
अन्यः चोरः धावितुम् इच्छति.
चोरः धावितुम्
इच्छति.
इच्छति. चोर थीफ धावितुं लैक्स् टु रन्.
धावितुम् इच्छति. धावितुम् इति पदस्य वर्तमानकालक्रियापदं कथं भवति?
धावति.
बहु समीचीनं, सम्यक् अवगच्छति. धावति इति वर्तमानकालस्य क्रियापदं भवति. धावितुं तस्य तुमनन्तरूपं धावितुम्.
धावितुं.
बहु समीचीनम्. अस्तु, धन्यवादः भगिनी.
धन्यवादः भगिनी.
अस्तु राधिका भगिनी
भगिनि
सः लेखनम् इच्छति
लेखनम् इच्छति सः हि लैक्स् टु रैट्
कथं वदति सः लेखनम् इच्छति तुमनन्तप्रत्यय प्रत्ययम् उपयोग प्रत्ययः उपयोगं कृत्वा वाक्यं रचयतु कृपया
सः लेखितुम् इच्छति
बहु समीचीनं सः पठनम् इच्छति
सः पठितुम् इच्छति
बहु समीचीनं सः गानम् इच्छति
सः गीत गातुम् इच्छति
बहु समीचीनं सः कथनम् इच्छति
सः कथितुम् इच्छति
सः गमनम् इच्छति
सः गन्तुम् इच्छति
बहु समीचीनं मम प्रश्नः आसीत् कथं सः पठनम् इच्छति सः लेखनम् इच्छति सः गमनम् इच्छति सः गानम् इच्छति सः कथनम् इच्छति वयं पठनं लेखनं कथनं गमनम् इति विषये न पठितवन्तः परन्तु भवती सम्यक् अवगत भवत्याः अवगमनं बहु सम्यक् आसीत् पठनं नाम किं लेखनं नाम किं कथनं नाम किं नाम इट्स् अ नौन् फार्म् रीडिङ्ग् क्रिया अस्ति चेत् पठति गायति पठति लिखति इति भवति इफ् यु कन्वर्ट् द सेम् थिङ्ग् इन् अ नौन् फार्म् लेखनं कथनं गमनं
Mm-hmm.
The noun form, it is, you tell it as gamanam. Gacchati padasya. Noun form will be gamanam.
Gamanam.
Mm-hmm. But you told, when you told it as a tumananta rupam, you told it very correctly. Sa gantum ichchati.
Mm-hmm. Yes, ma'am.
Bhavatyaha avagamanam bahu samyakeva asti. Iti eva aham vaktum ichchami.
Dhanyavadya, madam.
Samichyanam. सविता भगिनि
आं भगिनि
सः हसनम् इच्छति
सः हसितुम् इच्छति
बहु समीचीनं सः क्रीडनम् इच्छति
सः क्रीडितुम् इच्छति
सः करणम् इच्छति
सः कर्तुं करणीयम् इच्छति
पश्यतु करणम् इति नामपदरूपम् अस्ति तस्य क्रियापदं कथं भवति
करोति
करोति पदस्य तुमनन्तरूपं
कर्तुं
कर्तुं
कर्तुम् इच्छति
बहु समीचीनं बहु समीचीनं सः दर्शनम् इच्छति
सः द्रष्टुम् इच्छति
एकनिमिषम् अहं पश्यामि कुत्र तादृश
द्रष्टुं
द्रष्टुं तुमनतरूपं भवति
द्रष्टुमिच्छति
तस्य वर्तमानकालरूपं कथं भवति
पश्यति
आं पश्यति समीचीनं पश्यति पदस्य तुमनतरूपं द्रष्टुं अभ्यासेन भवति एकवारमेव न अभ्यासेन एव सम्यक् भवति अस्तु इदानीं सर्वे अभ्यासपुस्तकं पश्यतु
अस्तु भगिनि
अस्ति वा अस्तु पठति वा तुमनन्तरूपं विषये 67
आवरणे विद्यामानस्य क्रियापदस्य उचितं रूपम् उदाहरणवाक्ये इव लिखतु.
इव लिखतु.
उदाहरण एकं रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति.
अस्तु, अत्र वर्तमानकालस्य क्रिया कथं भवति?
क्रीडति
नाम सर्वे जानन्ति, क्रीडति नाम प्लेस् इति. रमेशः किमर्थं क्रीडाङ्गणं गच्छति?
क्रीडितुं क्रीडाङ्गणं गच्छति.
अन्य कार्यं किं कर्तुं साधारणतया वयं गच्छामः क्रीडाङ्गणं गच्छामः वयं
क्रीडं करणीयं
पुत्रीं पालनं करणार्थमपि वयं गच्छामः किल
क्रीडाङ्गणं
साधारणतया. मै क्वश्चन् वास् वै डु यु थिङ्क् वाट् विल् बि द अदर् रीसन् दट् वि विल् बि गोयिङ्ग् टु द प्ले ग्रौण्ड्. Okay, if it's okay. Children, okay, the children would go to want to play, but yeah. Other reasons, if we go to play to the play, I mean, if we go to the playground, we might want to watch our kids play.
Watch.
Paranam kartum api vayam kiranganam gachamah sadharnatiya.
Okay.
Rameshah, kimartam kiranganam gachati? Kriditam.
Okay. Can we say like this also? Kriditartam.
तुम्मुनन्तरूपम् इस् टु कन्वे द रीसन् वै वी आर् डूयिङ्ग् दिस् टु प्ले टु ईट् टु रैट् सो इट् एक्स्प्रेसस् दि रीसन् कारणम्
ओके.
So, it you can either replace that with tumanantarupam or kimartam iti prashnam api upayam kurmaha.
Okay. Both the ways we can...
Yes.
Okay.
It is appropriate. Okay. Yes.
Okay. Umesha. Shall I go ahead?
Gachatu. Agree gachatu.
Okay. Umesha vastuni dash anayati... आपणं गतवान्. ओके. उमेशः वस्तूनि आनेतुम् ओके आनेतुम् आपणं गतवान्.
समीचीनं. अत्र उपसर्गः अस्ति वा?
उपसर्गः अस्ति.
समीचीनम्. इति उपसर्गः
अस्ति.
समीचीनम्.
ओके. अहं लिखति लेखनीम् आनीतवती. ओके. अहं लेखितुं लेखनीम् आनीतवती.
समीचीनम्. अत्र कर्मपदम् अस्ति वा?
लेखनीं
कर्मपदं भवति. तुमनतरूपं
लेखितुं.
बहु समीचीनं. धन्यवादः भगिनि.
धन्यवादः भगिनि.
अस्तु, प्रगति भगिनि.
आं भगिनि,
अग्रे पठति वा?
जनाः नाटकं द्रष्टुम् इच्छन्ति.
समीचीनम्.
सः अस्वस्थः, अतः कार्यं कर्तुं न शक्नोति.
बहु समीचीनम्. अर्थः अस्वस्थः नाम?
नाट् वेल्.
समीचीनं. तस्य विरुद्धार्थकः पदं किं?
स्वस्थः.
समीचीनं. सः अस्वस्थः, तस्य विरुद्धार्थकशब्दः भवति स्वस्थः. अन्हेल्दि हेल्दि. समीचीनं. सः अस्वस्थः, अतः कार्यं कर्तुं न शक्नोति. बहु समीचीनम्. अनन्तरम् अग्रिमवाक्यं पठति वा?
सङ्गीतं श्रोतुं भवान् कुत्र गच्छति?
समीचीनं.
जलं पातुं चषकः आवश्यकः.
अवगच्छति किल?
आम् अवगच्छामि.
समीचीनं. विशेषरूपाणि एकवारं पठ भगिनि.
एकः प्रश्नः अस्ति. प्रीवियस्लि दट् पठनन् क्रीडनन् दिस् नौन् फार्म् पठनं यस् पठनं अण्ड् आल् नान् फार्म्स् दे आर् आल् इन् द्वितीया विभक्ति.
न न इट्स् नाट् इन् दट् फार्म् दिस् इस् दट्स् अनदर् प्रत्ययः. ऐ डोण्ट् just for the sake of doing abhyasam I used those kinds of sentences. They are called as ludanta roopam. We will be learning about that in the next book.
Which
that
roop?
we are learning ludanta roopam.
Okay
ludanta roopam.
Okay.
Okay. So that's not there for the level that we are learning, but since for the sake of asking making sentences and asking questions to understand tumuranta roopa, I use those kinds of sentences.
Okay
but it's not dvitiya vibhakti roopam.
Okay.
Samichinam. Vishesha roopani.
Vishesha roopani. Upavishyati. Upaveshtum. Uttishtati. Utthatum. अस्ति और भवति भवितुं क्रीणाति क्रेतुं
समीचीनं
गृह्णाति ग्रहीतुं
ग्रहीतुं
पिबति ग्रहीतुं पिबति पातुं आह्वयति आह्वातुं
आह्वयतु आह्वातुं दीर्घ आकारः अस्ति. आह्वयति आह्वातुं समीचीनम्. आम्
मिलति मेलितुं
समीचीनम्. एतानि रूपाणि विशेषरूपाणि भवति. अभ्यासेन तदपि सुलभः भवति गतता कालेन. समीचीनं. अभ्यासार्थं कानिचन वाक्यानि अहं वदामि, पश्यामः अवगमनार्थं तुमनन्तरूपविषये एव. धन्यवादः भगिनी. प्रगति भगिनी.
धन्यवादः.
अहं पद्मिनी भगिनी. अहं पठनार्थं विद्यालयं गच्छामि. तुमनन्तरूपम् उपयोगं करोति वा?
अहं पठितुं विद्यालयं गच्छामि.
समीचीनं. सः शयनार्थं गच्छति.
सः शयितुं
शयितुं समीचीनम् आम् आम् समीचीनं. सः वदनार्थं गच्छति.
सः वक्तुं गच्छति.
वक्तुं
गच्छति.
बिडालः खादनार्थं भोजनालयं प्रविशति.
बिडालः वाट् इस् दट्
खादनार्थं
खादितुं भोजनालयं गच्छति.
समीचीनं. अवगच्छति वा?
अवगच्छामि अवगच्छामि. अवश्यम्
आमाम् आवश्यकं भवति. आम् अभ्यासपुस्तक स्थलविषये सर्वे सम्यक् जानन्ति, चिन्ता मास्तु. विश्वासः आवश्यकमस्ति.
आं भगिनि.
समीचीनं. धन्यवादः भगिनि. धन्यवादः. समयः अभवत् जातः किल? क्षम्यतां, बहु शीघ्रमेव समयः जातः. अस्तु, रविमहोदय.
आं भगिनि.
आम्, सा पचनार्थं पाकशालां गच्छति.
सा
पचनार्थं पाकशालां गच्छति.
ओके, सा पठतु.
भगिनि, कथनार्थं पठनार्थं?
पठनार्थं.
पचनार्थं.
पचन
पचनार्थं.
सा किमर्थं पाकशालां गच्छति?
पठनार्थं.
पाकशाला, पाकशाला नाम किचन्.
पाकशाला. ओके, न सम्यक् श्रुतवती, श्रुतवन्तः.
चिन्ता मास्तु, चिन्ता मास्तु. आम्,
पाकशाला.
पाकशाला न, पाकशाला.
पाकशाला वा?
आम्. सा पचनार्थं पाकशालां गच्छति.
सा पचतु.
पचति इति वर्तमानकालस्य क्रियापदं भवति, पचति. तस्य तुमनन्तरूपं
पचतुम्.
माधवी भगिनी पूर्वम् उक्तवती पचति इति पदस्य तुमनन्तरूपं किम् इति.
पचितुम्.
पक्तुम् इति भवति. नूतनशब्दः अस्ति, नूतनशब्दः अस्ति, चिन्ता मास्तु. सा पक्तुं पाकशालां गच्छति. युवकः चायं, युवकः चायं पानार्थम् उपाहारगृहं गच्छति. युवकः नाम यूत्, युवकः, यङ्ग् बाय्, यङ्ग् बाय्. युवकः चायं पानार्थं, पानार्थम् उपाहारगृहम्, उपाहारगृहं नाम रेस्टोरेण्ट्,
रेस्टोरेण्ट्
उपकारगृहं गच्छति.
ओके, युवकः चायं
पातुं,
पातुं. ओके,
पिबति इति अर्थे, पिबति इति वर्तमानकालरूपं भवति. तस्य तस्य तुमनन्तरूपं पातुम् इति भवति.
ओके,
अभ्यासं यूसिङ्ग् किमर्थं किमर्थम् इति पृच्छामः किल, पठनार्थं, शयनार्थं, वदनार्थम्, अर्चनार्थं, पानार्थम् इति वदामः चेत् पातुं, पठितुं, शयितुं, क्रीडितुं, रक्षितुम् इति तुमनन्तरूपं वदामः साधारणतया. अतः अभ्यासं कृतवन्तः वयम्. इदानीं तुमनन्तरूपं कुत्र किमर्थं कुर्मः इति अवगतवन्तः वा सर्वे?
अवगच्छामि भगिनि.
आं भगिनि,
किमर्थम् उपयोगं कुर्मः महोदय?
Only some words, I think we...
Yeah, some words are difficult because we are learning it for the first time.
Yeah.
So it will take time. At least we should be able to understand the concept when we will be using Tumanantarupam.
Yeah.
When do you think we'll be using Tumanantarupam?
To use it as like a reasoned, like...
Exactly. The right word. Exactly. Right. To reason out something. किमर्थम् इति प्रश्नस्य उत्तरं वक्तुं तुमनन्तरूपं साधारणतया वदामः. टु डू सम्थिङ्ग् इति. प्रश्नः अस्ति वा?
न भगिनि.
अद्य प्रमुखपाठः किं भवति, किम् आसीत् अद्य किं वयं पठितवन्तः तुमुन् इति प्रत्ययविषये वयं पठितवन्तः गतवर्गे त्वा यप् इति प्रत्ययविषये वयम् अभ्यासं कृतवन्तः अद्य तुमुनन्त प्रत्ययविषये वयम् अभ्यासं कृतवन्तः अवगमनं समीचीनमस्ति चेत् अग्रिमवासरे मिलामः अग्रिमवासरे केवलं स्वल्पविषयमेव अस्ति चेत् नो चेत् यतः अतः यः सः यत् तत् यद्यपि तथापि इति विषयः अपि अस्ति विषयमपि केवलं चत्वारः विषयः अपि अस्ति वयम् अग्रिमवासरे अभ्यासपुस्तकं समापनं कर्तुं प्रयत्नं कुर्मः इति अहं चिन्तयामि प्रयत्नं कुर्मः सुलभः एव भवति चेत् नो चेत् यतः ततः एतानि विषयाणि सुलभः एव भवति किञ्चित् अभ्यासं कृत्वा अग्रिमवासरे समापयितुं शक्नुमः इति अहं चिन्तयामि पश्यामः अन्य कोऽपि प्रश्नः अस्ति वा अग्रिमवासरे मिलामः वा भगिनि पुनर्मिलामः ऐ थिङ्क् ऐ एम् नाट् श्योर् इफ् द रेकार्डिङ्ग् हेपेण्ड् can anyone of you see from your end if the recording is on or not?
You're not seeing.